अथ नवमोऽध्यायः श्रीभगवानुवाच इदं तु ते गुह्यतमम् प्रवक्ष्याम्यनुसूयवे ज्ञानविज्ञानसहितम् यज्ञात्वा मोक्षसे शुभात् राजविद्याराजगुह्यम् पवित्रमिदमुत्तमम् प्रत्यक्षावगमम् धर्मम् सुसुखम् कर्तुरव्ययम् अश्रद्धदानः पुरुषा धर्मस्यास्य परन्तप अप्राप्य माम् निवर्तन्ते मृत्युसंसारवर्त्मनि मया ततमिदम् सर्वम् जगतव्यक्तमूर्तिना मतस्थानि सर्वभूतानि न चाहम् त्वेषवस्थितः न च मतस्थानि भूतानि पश्य मे योगमैश्वरम् भूतभृन्न च भूतस्तु ममात्मा भूतभावनः यथाकाशस्थितो नित्यम् वायुः सर्वत्र गोमहान् तथा सर्वाणि भूतानि मस्थानि उपधारय सर्वभूतानि कौन्तेय प्रकृतिम् यान्ति मामिकाम् कल्पक्षये पुनस्थानि कल्पादौ विसृजाम्यहम् प्रकृतिम् स्वामदिष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमम् कृष्णम् अवशम् प्रकृते वशात् न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनम् असक्तम् तेषु कर्मसु मया धक्षेण प्रकृतिः सूयते चराचरम् हेतुनानेन कौन्तेय जगद्विपरिवर्तते अवजानन्ति माम् मूढा मनुषिम् तनुमाश्रितम् परम् भावमजानन्तो मम भूतमहेश्वरम् मोघाशामोहकर्मणो मोघज्ञानाविचेतसः राक्षसीमासुरिंश्चैव प्रकृतिम् मोहिनिश्रिताः महात्मनस्तु माम् पार्थ दैवीम् प्रकृतिमाश्रिताः भजन्ते अनन्यमनसो ज्ञात्वा भूतादिमव्ययम् सततम् कीर्तयन्तो माम् यतन्तश्च दृढव्रताः नमस्यन्तश्च माम् भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्ते मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहम् कर्तु अहम् यज्ञ स्वादा अहम् अम् औषधम् मन्त्रो अहम् अहम् एवाच्यम् अहम् अग्निरहम् हुतम् पितामहस्य जगतो माता धाता पितामहः वेधम् पवित्रमोङ्कार ऋक्षामयजुरेव च गतिर्भर्ता प्रभु साक्षी निवासश्च शरणम् सुहृत् प्रभवः प्रलयम् स्थानम् निधानम् बीजमव्ययम् तपाम्यहम् अहम् वर्षम् निगृहाम्यसृजाम्य च अमृतंश्चैव मृत्युश्च सदसश्चाहमर्जुन त्रैविद्या माम् सोमपापूतपापा यज्ञेरिष्ट्वा स्वर्गतिम् प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोका अश्नन्ति दिव्यान् दिवि देवभोगान् ते त्वम् भुक्त्वा स्वर्गलोकम् विशालम् क्षिणे पुण्येमर्त्यलोकम् विशन्ति एवम् त्रयी धर्ममनुप्रपन्ना गतागतम् कामकामा लभन्ते अनन्याश्चिन्तयन्तो माम् ये जनः पर्युपासते तेषाम् नित्याभियुक्तानाम् योगक्षेमम् वहाम्यहम् येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्ते अविधिपूर्वकम् अहम् हि सर्वयज्ञानाम् भुक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेनातश्च वन्तिते यान्ति देवव्रता देवान् पितॄन्यान्ति पृथुव्रताः भूतानि यान्ति भूतेज्या यान्ति मध्याजिनोऽपि माम् పత్రం పుష్పం ఫలం తోయం యో మే భక్త్యా ప్రయచ్చతే తదహం భక్త్యా ఉపహర్తం అశ్నామి ప్రయతాత్మనః యత్ కరోషి యదశ్నాసి యజ్జుహోసి దదాసి యత్ యత్తపసస్సి కౌంతేయ తత్కరుష్వమదర్పణం శుభాశుభఫలైరేవం మోక్షసే కర్మ బంధనైః సన్యాసయోగయుక్తాత్మా విముక్తో మాముపైశ్యసే సమోహం సర్వభూతేషు నమే దేశోస్తి న ప్రియః యే భజంతి తు మాం భక్త్యా మయీతే తేషు చాప్యహం అపి చేత్ సుదురాచారో భజతే మామనన్యభాక్ సాదురేవ సమంతవ్య సమ్యాగ్ వివసితో హి సః క్షిప్రం భవతి ధర్మాత్మా సస్వక్షాంతిం నిగచ్చతే కౌంతేయ ప్రతిజానీహి నమే భక్తః ప్రణశ్యతే మాం హి పార్థ వ్యపాశ్రిత్య ఏపి స్తూపాపయోనయః స్త్రియో వైశ్యస్తథా శూద్ర స్తీపి యాంతి పరాం గతిం కిం పునః బ్రాహ్మణః పుణ్య భక్తా రాజర్షయస్తథా అనిత్యం అసుఖం లోకం ఇమం ప్రాప్య భజస్వ మాం మన్మనాభవ మద్భక్తో మధ్యాజీ మాం నముష్కురు మామే వైశ్యసి యుక్తైవం ఆత్మానం మత్పరాయణః ఓం తస్సదితి శ్రీమద్భగవద్గీతాసూపనిషత్సు బ్రహ్మ విద్యాయాం యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే రాజవిద్యా రాజగుహ్య యోగో నామ నవమోధ్యాయః